एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। प्रधानमन्त्रिणः शेरबहादुर देउवा विदस्य अध्यक्षतायाम् द्विसप्ततितम राष्ट्रिय प्रजातन्त्र दिवस मूल समारोह समितिः संघटिता वर्तते। मूल समारोह समित्या आगामिनः फाल्गुन मासस्य षष्ठे सप्तमे अष्टमे च दिवसेषु विविधान् कार्यक्रमान् आयोज्य प्रजातन्त्र दिवसं भव्यरूपेण समायोजयितुं निर्णीय कार्यक्रमाणां सफलतायै विभिन्नाः उपसमितयश्च संघटिताः सन्ति। मूल समारोह समितेः आयोजनायां फाल्गुन मासस्य सप्तमे दिवसे काष्ठमण्डपस्य टुणिखेल वर्तिनी सैनिक मञ्चे मूल समारोह सम्पत्स्यते। जनपदेष्वपि विविधाः कार्यक्रमाः आयोक्ष्यन्ते। प्रजातन्त्र दिवसस्य अवसरे आराष्ट्रम दीपावल्याः टुणिखेलस्थाने हेलिकॉप्टर यानात् पुष्पवृष्टेः राष्ट्रिय ध्वज प्रदर्शनस्य कार्यक्रमाः निर्धारिताः सन्ति इति मूलायोजक समितिः ज्ञापयति। टुणिखेलस्थाने आयोक्ष्यमाणं मूल समारोहं रेडियो नेपालः नेपाल टेलीविजन संस्थानं च प्रत्यक्षं प्रसारयिष्यतः। प्रसारणेच्छुकाभिः अन्याभिः प्रसारण संस्थाभिः रेडियो नेपालेन नेपाल टेलीविजन संस्थानेन च सह समन्वयं विधाय प्रसारणं विधातव्यं भवति। अत्रान्तरे द्वासप्ततितम राष्ट्रिय प्रजातन्त्र दिवस प्रचार प्रसारोपसमितेः ह्यः सिंह प्रासादे उपविष्टेन उपवेशेन प्रजातन्त्र दिवसस्य भव्यतया सम्पादनाय एतस्य महत्वस्य विषये परिसंवादं जागरणगीतं सन्देशाञ्च प्रकाशयितुं प्रसारयितुं च निर्णीतं वर्तते। उपवेशेन रेडियो नेपाल नेपाल टेलिभिजन संस्थान गोर्खापत्र राष्ट्रिय समाचार समिति प्रवृत्तिभिः संचार माध्यमैः प्रजातन्त्र दिवस सम्बद्धाः सन्देशमूलक सामग्री प्रकाशयितुं प्रसारयितुं च निर्णीतमस्ति। उपवेशे संचार सूचना प्रविधि मन्त्रालयस्य सचिवः प्रचार प्रचारोपसमितेः संयोजकश्च डॉ वैकुण्ठ अर्यालः अवोचत् प्रजातन्त्र दिवसस्य अवसरे सर्वकारीय संचार माध्यमैः अग्रणी भूमिकां निरूह्य दिवसस्य महत्वस्य प्रतिजनं प्रापणम् आवश्यकं वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेशः अद्य वसति। उपवेशस्य सम्बन्धे ह्यः दलस्य पदाधिकारिभिः विमिष्टं वर्तते। वालुवाटार वर्तिनी प्रधानमन्त्री निवासे सम्पन्ने दलस्य पदाधिकारिणां विमर्शने स्थानीय स्तराणां निर्वाचनस्य दलस्य अवशिष्टानां जनपदानां अधिवेशनस्य भ्रातृसंस्थानां अधिवेशनस्य विविध सामयिकतायाश्च विषयेष् विमृश्यते इति दलस्य सह महामन्त्री बद्री पाण्डे अज्ञापयत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेशः अद्य द्विवादने ललितपुरस्य सानेपावर्तिनी दल कार्यालये वसति। नेकपा माओवादी केन्द्रस्य केन्द्रीय समितेः उपवेशः अस्यैव माघमासस्य अष्टाविंशे उनत्रिंशे च दिवसयोः वस्ता। काष्ठमण्डपस्य कमलादिवर्तिनी नेपाल प्रज्ञा प्रतिष्ठाने उपवेक्ष्यमाणेन उपवेशेन केन्द्रीय पदाधिकारिणः निर्णश्यन्ते इति माओवादी केन्द्रं ज्ञापयति। माओवादी दलस्य विधानस्य अनुसारेण एकः अध्यक्षः एकः वरिष्ठोपाध्यक्षः षट् उपाध्यक्ष्याः एको महासचिवः द्वौ उपमहासचिवौ त्रयः सचिवाः एकः कोषाध्यक्षश्चेति कृत्वा पञ्चदशपदाधिकारिणां व्यवस्था वर्तते। प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च शेरबहादुर देउवा पूर्व प्रधानमन्त्रिणः नेपाली कांग्रेस दलस्य सभापतेः सुशील कोइरालाविदस्य सप्तम स्मृति दिवसस्य अवसरे तस्मै श्रद्धाञ्जलिम् आर्पयत्। सुशील कोइरालाविदस्य योगदानस्य संविधान निर्माणे विहितस्य नेतृत्वस्य दलान्तरे विहितस्य योगदानस्य च विषयान् चर्चयन् प्रधानमन्त्री देउवा कोइरालाविदस्य नेतृत्वदायी भूमिका सर्वेषां कृते प्रेरणादायिनी वर्तते इति ह्यः सामाजिक सञ्जालस्य माध्यमेन अज्ञापयत्। गृहमन्त्रिणा बालकृष्ण खाँड इत्यनेन अर्थमन्त्रिणा जनार्दन शर्मणा सह निर्वाचन लक्षितस्य वित्तस्य विषये ह्यो विमृष्टमस्ति। गृहमन्त्रालये विहिते विमर्शने निर्वाचन लक्षितात् वित्तादपि विशेषतः नेपाल प्रहरी सशस्त्र प्रहरिणोः सुरक्षा निकायोः कृते आवश्यक यान साधनानां व्यवस्थापन सामग्रीणाञ्च विषये वार्ता सम्भूतेति नीति योजना निगमन मूल्यांकन महाशाखायाः प्रमुखः सहसचिवः डॉ भीष्म कुमार भूषालः अज्ञापयत्। विमर्शने अर्थमन्त्रिणा शर्मणा निर्वाचनेन अर्थमन्त्रालये वर्धितस्य याचनाधिक्यस्य विषये ज्ञापयता अत्यावश्यकतया विधातव्यानां कार्याणां विषये ज्ञापयितुम् अनुरुद्धम् आसीत्। गृहमन्त्री खाँड च अर्थमन्त्रालये सृष्टस्य प्रभावस्य विषये गृहमन्त्रालयः सचेष्टोस्तीति अत्यावश्यक विषयवस्तूनां विषये बोधयिष्यते इति च अज्ञापयत्। नेपाल प्रहरिणा सशस्त्र प्रहरिणा च निर्वाचने संलग्नतायै यातायात साधनानां व्यवस्थापनस्य सामग्रीणाञ्च याचनायाः अनन्तरं गृहमन्त्रिणा खाँड इत्यनेन अर्थमन्त्रिणा सह विमृष्टम् आसीत्। काष्ठमण्डपे अवस्थितस्य याकेन यति होटल अतिथि सदस्य नाम्नि सञ्चालितेन द्युतागारेण राज्याय अर्पणीयं द्वाचत्वारिंशत कोटीनां रूप्यकाणां राजस्वं नार्पितमिति हेतोः एतस्य अतिथि सदनस्य पञ्चतारिकात्मक वर्गीकरणं द्युतागार सञ्चालनानुमतिश्च निरस्तीकृते स्तः। सर्वकाराय अर्पणीयं राजस्वं भूयो भूय संसूचने विहिते सत्यपि नार्पितमिति हेतोः संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणः प्रेम बहादुर आले भिदस्य निर्देशनेन अनुमति रेसा निरस्तीकृता वर्तते। आराष्ट्रम अस्य सप्ताहस्य कोरोना विषाणो संक्रमणस्य अनुपातः प्रतिशतं 10.27% स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। मन्त्रालये ह्यः आयोजिते पत्रकार सम्मेलने गतसप्ताहस्य तुलनायाम् अस्मिन् सप्ताहे संक्रमणस्य अनुपातः न्यूनोऽस्ति इति मन्त्रालयस्य प्रवक्ता डाक्टर संगीता मिश्रा ज्ञापितवती। संक्रमणस्य अनुपाते न्यूनीभूते सत्यपि विषाणोः स्वरूप परिवर्तनस्य नवीन प्रजातेः उत्पन्नस्य च संकटः विद्यमानोऽस्ति इति चर्चयति प्रवक्ता मिश्रा। जनस्वास्थ्यस्य मापदण्डान् अनिवार्य रूपेण पालयितुम् अनुरुणत्। ह्यः आराष्ट्रम् अतिरिक्तेषु सहस्रद्वये चतुश्शते एकस्मिन् च जनेषु कोरोना विषाणोः संक्रमणं पुष्टीभूतं वर्तते। ह्यः आराष्ट्रम् 7777 जनाः कोरोना विषाणोः संक्रमणात् मुक्ताः सन्ति। संक्रमणेन ह्यः 14 जनाः मृताः। ह्यस्तनावधि आराष्ट्रम् 33,741 जनाः सक्रिय संक्रान्ताः सन्ति इति स्वास्थ्य मन्त्रालयेन ज्ञापितं वर्तते। राष्ट्रपतिना विद्यादेवी भण्डारिणा वाङ्मय शताब्दी पुरूषस्य सत्यमोहन जोशिनः स्वास्थ्यलाभस्य कामना विहिता वर्तते। राष्ट्रपतिः भण्डारिणः पक्षतः अस्याः संस्कृति विषय सम्बद्ध परामर्शदात्रा माधव शर्मणा सहिताः सचिवालयस्य सदस्याः पूर्वे द्यू ललितपुरस्य ग्वारकोस्थितं किष्ट चिकित्सालयं प्राप्य जोशिनः स्वास्थ्यलाभस्य कामनां व्यदधु। यैव स्वास्थ्य जनसंख्या मन्त्री विरोध खतिवडा च चिकित्सालयं प्राप्य जोशिनः स्वास्थ्य स्थितिर्विषये अजानात्। जोशिनः स्वास्थ्यावस्था सामान्य वर्तते। राप्रपा नाम्नि राष्ट्रिय प्रजातन्त्र दले पश्चात्तन समये सिष्टम् विवादम् समाधातुम् पदाधिकारिणाम् उपवेशः अद्य काष्ठमण्डपे उपविश्यमानो वर्तते। धूम्रबाराहि स्थिते दलकेन्द्रीय कार्यालये दिवा उपविश्यमाने उपवेशे दलाभ्यन्तरे विकस्यमानानाम् समूहानाम् अन्तः कथम् विधेयः दलम् सम्भावित विभाजनात् रक्षित्वा कथम् आगामि निर्वाचने सफलता अधिगमिष्यते इति च विषये विमर्श्यते इति नेता सुन्दर पाण्डे अज्ञापयत्।